अगजानन पद्माकं गजाननमहर्निशम् अनेकदन्तं भक्तानाम् एकदन्तमुपास्महे श्रीमहागणपतये नमः गुरवे सर्वलोकानां विषये भवरोगिणां निजदे सर्वविद्यानां श्रीदक्षिणामूर्तये नमः अस्मद्गुरुचरणारविन्दाभ्यां नमः हरिः ओम् श्रूयते वा महोदय
श्रूयते भगिनि
ज्ञानानन्दमयं देवं निर्मलस्फटिकाकृतिम् आधारं सर्वविद्यानां हयग्रीमुपास्महे सरस्वती नमस्तुभ्यं वरदे कामरूपिणी विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा श्रीमहासरस्वत्यै नमः हरिः ओं सर्वेभ्यो नमस्कारः
धन्यवादः भगिनी सर्वेभ्यो नमः सर्वेषां स्वागतम् अस्मिन् वर्गे अस्माकं प्रवर्तमानविषयः अस्ति तत्र विधिलिङ्गकारः तत्र विधिलिङ्गकारः तत्र विध्यर्थे इति द्वितीयः अर्थः किन्तु प्रथमः अर्थः अस्ति तत्र सम्भावनार्थे इति तस्मिन् विषये वयं तत्र रूपाणि दृष्टवन्तः साक्षात् पाठमपि पठितवन्तः गतवर्गे श्लोकान् अपि कृतवन्तः अपि एकां कथामपि पठितवन्तः इदानीं तत्र अन्या कथा अपि अस्ति मया प्रेषिता कथा तत्र ईमेल् द्वारा तां कथामपि पठित्वा तत्र अग्रे सरामः इति चिन्तितवान् अतः तत्र द्वितीया कथा ईमेल् मध्ये द्वितीया कथा अस्ति तत्र तत्र शीर्षकः अस्ति तत्र कतरः बुद्धिमान् इति द्वितीय लिङ्क् अस्ति तत्र प्राप्तवन्तः वा सर्वे
आं
महोदय
लक्ष्मी भगिनी नमस्कारः
नमस्कारः महोदय
नमस्कारः भगिनी तत्र ईमेल् मध्ये द्वितीय लिङ्क् अस्ति भगिनि सेकेण्ड् स्टोरि बुद्धिमान् इति गतवर्गे तत्र श्लोके अपि आगतं खलु एतत् पदं कतरम् इति कतरः कतरम् इति आगतं खलु अस्यां कथायामपि तत्र कतरः इति पदम् अस्ति अस्तु तर्हि तत्र उषा भगिनी आरम्भं करोति वा
आं महोदय कतरः बुद्धिमान् कस्मिंश्चित् स्थाने कश्चन पण्डितः वसति स्म यद्यपि तस्य पाण्डित्यम् अल्पमेव महापण्डितं मन्यते स्म एकदा सः विद्यमानान् पराजेतुं निश्चितवान् अतः तत्र तत्र गत्वा सः जनान् प्रश्नान् पृच्छति स्म तस्य अयं नियमः आसीत् यत् ये तस्य प्रश्नान् उत्तरं दातुम्
प्रश्नानां भवेत् प्रश्नानां तत्र प्रश्नानां खलु
प्रश्नानाम् उत्तरं दातुम् असमर्थाः भवन्ति ते तस्मै पण्डिताय दण्डरूपेण दशरूप्यकाणि यच्छेयुः एवमेव पण्डितः बहुभ्यः जनेभ्यः धनं सङ्गृहीतवान्
हा इति समीचीनं भगिनि हा अस्तु अग्रे नरेश महोदय अग्रिमे पुटे
अग्रिमपुट एकक्षणम्
केवलं तत्र लिङ्क् चाट् मध्ये प्रेषितवान् यदि अग्रे
पण्डितस्तु निरक्षरः
महोदय महोदय तत्र वामभागे पश्यतु महोदय तत्र कदाचित् सः
कदाचित् सः कञ्चित् ग्रामं प्रविष्टवान् तस्मिन् ग्रामे कृषीवलाः एव अधिकाः आसन् ते यत्र कर्षणं कुर्वन्तः आसन् तत्रैव सः पण्डितः गतवान् तान् कृषिकान् आहूय स्वस्य परिचयम् उक्तवान् अनन्तरम् उक्तवान् भवत्सु यः कोऽपि मया सह स्पर्धां कर्तुम् अर्हति अहं तम् उद्दिश्य एकं प्रश्नं पृच्छामि यदि सः उत्तरं वदति तर्हि तस्य जयः यदि सः उत्तरं वक्तुम् असमर्थः भवति तर्हि तेन मह्यं दण्डरूपेण 10 रूप्यकाणि दातव्यानि वदन्तु कः स्पर्धार्थम् आगच्छति इति
हा समीचीनं महोदय धन्यवादः अग्रे शुभा भगिनी
कृषिकाः सर्वेपि विस्मिताः भूत्वा तूष्णीं स्थिताः आसन् तदा तेषु कश्चन युवकः कृषिकः अग्रे आगत्य तं पण्डितम् उक्तवान् ममापि एकः प्रश्नः अस्ति यदि भवान् मम प्रश्नस्य उत्तरं न दास्यति तर्हि भवतां मह्यं 20 रूप्यकाणि दातव्यानि इति पण्डितस्तु निरक्षरः एषः कृषिकः किं पृच्छेत् इति भावेन एव तस्य नियमम् अङ्गीकृतवान् युवकः प्रश्नं पृष्टवान् तादृशः कश्चन पक्षी अस्ति यस्य डयनसमये 3 पादाः भवन्ति भूमौ यदा उपविशति तदा पादद्वयमेव भवति सः कः पक्षी इति
धन्यवादः
धन्यवादः
अग्रे अग्रे लक्ष्मी भगिनी
एतं प्रश्नं श्रुत्वा पण्डितः नितरां विस्मितः सः उत्तरं दातुं दिनद्वयात्मकं समयं याचितवान् ततः स्ववासस्थानं गतवान् दिनद्वयं यावत् पक्षिविषयकाणां सर्वेषां ग्रन्थानाम् अध्ययनं कृतवान् तथापि सः कः पक्षी इति सः न ज्ञातवान्
समीचीनं भगिनी तत्र अग्रिममपि पठतु
दिनद्वयम् अतीतं तस्मिन् दिने निश्चिते समये सर्वे कृषिवलाः उपस्थिताः आसन् पण्डितमन्यः तत्र आगतवान् सः अतीव लज्जितः आसीत् सः स्वस्य पराजयम् अङ्गीकृतवान् अतः 20 रूप्यकाणि दत्तवान्
समीचीनं भगिनि अस्तु धन्यवादः अग्रे शुभदा भगिनि
आं महोदय अनन्तरं पण्डितः युवकं तमेव प्रश्नं पृष्टवान् युवकः झटिति पण्डिताय 10 रूप्यकाणि यच्छन् उक्तवान् श्रीमन् अहमपि प्रश्नस्य उत्तरं दातुम् असमर्थः यतः प्रपञ्चे तादृशः कोऽपि पक्षी नास्ति एव इति युवकस्य चातुर्यं ज्ञात्वा पण्डितः लज्जितः सन् शिरः अवनतं कृतवान् ततः स्वदिग्विजयविचारं परित्यज्य स्वग्रामं प्रति गतवान्
समीचीनं भगिनि धन्यवादः अस्तु तत्र कथायां तत्र विषयः तत्र किम् अस्ति इत्युक्ते तत्र विधिलिङ्गकारः अस्ति तत्र सम्भावनार्थे अतः तत्र केवलं तत्र 3 वारम् अस्ति किन्तु अस्तु समीचीनम् इति मन्ये अस्तु वंशीसुधा भगिनी नमस्कारः
नमस्ते महोदय सुप्रभातम्
एकनिमिषं भगिनि तत्र कथा एका अस्ति भगिनि तत्र लिङ्क् मध्ये प्रेषयामि कतरः बुद्धिमान् इति प्रेषितवान्
अद्य कथा कुर्मः वा
किं भगिनि
श्रूयते अद्य कथा कुर्मः
कथां पठामः भगिनि
किञ्चित् अनन्तरं पठितुं शक्यते
अस्तु अस्तु भगिनि अस्तु अस्तु भगिनि चिन्ता मास्तु
20 निमेषात् अनन्तरम् अस्तु
अस्तु भगिनि अस्तु तर्हि इदानीं तत्र उषा भगिनी तत्र आरम्भं करोति वा तत्र
आं महोदय कस्मिंश्चित् स्थाने कश्चन पण्डितः वसति स्म इत्युक्ते वयं न सम्यक्तया न जानीमः स्थानं कुत्र अस्ति इति कश्चन पण्डितः
तत्र कुत्र हा कश्चन पण्डितः अस्ति हा अपि सः कस्मिन् स्थाने अस्ति इति न जानीमः पण्डितः अपि न जानीमः समीचीनं हा स्मानः भूतकाल भूतकालवाचकं
यद्यपि तस्य पाण्डित्यम् अल्पमेव तथापि सः आत्मानं महापण्डितं मन्यते स्म इत्युक्ते पण्डितः अधिकं ज्ञानं नास्ति परन्तु सः चिन्तयति अहं महान् पण्डितः अस्ति इति
अहं महापण्डितः अस्मि इति सः चिन्तयति स्म हा मन्यते इति तत्र बहुवचने किम् अस्ति
मन्यन्ते
हा उत्तमपुरुषे एकवचने
मन्ये
अहं मन्ये अहं मन्ये आवां मन्यावहे वयं
मन्यावहे
मन्यामहे
मन्यामहे
हा तत्र आत्मानं महापण्डितं तत्र मन्यते स्म तत्र आत्मानं महापण्डितं कर्मपदं खलु मन्यते सः किं मन्यते आत्मानं
महापण्डितं मन्यते
हा तत्र प्रथमविभक्तिरूपं किम् अस्ति आत्मानं महापण्डितम्
आत्मा
महापण्डितः
महापण्डितः
इदानीं तस्य द्वितीयविभक्त्यन्तरूपम् आत्मानं महापण्डितं
मन्यते
हा अपि पाण्डित्यं कीदृशं पाण्डित्यम् आसीत् तस्य
अल्पमेव अस्ति
अल्पमेव आसीत् पाण्डित्यं कीदृशम् अल्पम् अल्पमेव आसीत् किन्तु सः
चिन्तयति
समीचीनं भगिनि हा अग्रे
एकदा सः स्वबुद्धिमत्या प्रपञ्चे विद्यमानान् सर्वान् जनान् पराजेतुं निश्चितवान् सर्वान् जनान् पराजेतुं निश्चितवान् तव तु
पराजेतुं नाम तेषाम् उपरि जयं प्राप्तुम् इष्टवान् कान् जनान्
प्रपञ्चे विद्यमानान् सर्वान् जनान् विशेषणं
विद्यमानान् सर्वान् जनान् ये जनाः सन्ति तेषाम् उपरि
पराजेतुं
केन मार्गेण सः एतत् कर्तुं निश्चितवान्
स्वबुद्धिमत्तया
तत्र प्रथमविभक्तिरूपं किम् अस्ति
स्वबुद्धिमत्तः
बुद्धि तत्र पदं
बुद्धिमतिः
मत्तया नास्ति खलु मत्तया इति अस्ति खलु
आं महोदय मति अस्ति चेत् मत्यं भवति
सत्यं किन्तु दद् नास्ति
मत्तया स्वबुद्धिमत्तया
तत्र चिन्तयतु प्रातिपदिकं किम् आकारान्तपदं वा ईकारान्तपदं वा लिङ्गं किम् इति चिन्तयतु
किम् अस्ति महोदय
भवती वदतु आकारान्त वा ईकारान्त वा
आकारान्त इति मतिः न इकारान्तं
भवती
पदमेव क्लेशः भवति महोदय मत्तया इति अस्ति न महोदय
सत्यं भगिनि किन्तु अस्तु लता इति पदस्य तृतीया विभक्तिरूप
लतया
अस्तु नदी इति पदस्य
नद्या
इदानीम् एतत् कीदृशम् अस्ति लतयावत् अस्ति वा नद्यावत् अस्ति वा
लतयावत्
अतः तत्र आकारान्तस्त्रीलिङ्गपदम् अतः पदं किमस्ति प्रातिपदिकं स्वबुद्धि
मत्तिः
न आकारान्त इति भवती उक्तवती खलु
लता
आकारान्त इत्युक्ते अन्ते भवेत् खलु बुद्धिमत्ता
मतया अपि च मत्ता भेदः
हा भेदः अस्ति भगिनि तत्र भावः बुद्धिमत् स्वबुद्धिमान् स्वबुद्धिमत् इति प्रातिपदिकं तस्य भावः बुद्धिमत्तया मत्ता बुद्धिमत्ता इति इदानीं तस्य तृतीया बुद्धिमत्तया इति
तत्र
हा सुन्दरता इति सुन्दर सौन्दर्यस्य भावः खलु सुन्दर इति पदस्य भावः सुन्दरता सुन्दरतया इति तस्य तृतीया विभक्त्यन्तम् तत्र मार्गः तत्र केन मार्गेण अथवा ते केन कस्य उपयोगं कृत्वा तत्र बुद्धिम् उपयुज्य सः जनान् पराजयितुं निश्चितवान् अस्तु अग्रे
सः तत्र तत्र गत्वा सः जनान् प्रश्नान् पृच्छति स्म इत्युक्ते तत्र तत्र इत्युक्ते
एकं ग्रामं गत्वा पुनः अन्यत् ग्रामं गत्वा इति
जनान् जनान् प्रश्नान् पृच्छति स्म
हा इदानीं तत्र विशेष अंशः अस्ति पृच्छ धातोः कः अंशः पृच्छ धातोः तत्र पृच्छति इति अस्ति तत्र कर्तृपदं किम् अस्ति कः पृच्छति
सर्वान् जनान्
न कः पृच्छति
पण्डितः महोदय
हा सः पण्डितः पृच्छति इदानीं हा कर्मपदम् अस्ति वा अस्मिन् वाक्ये
पृच्छति न महोदय
कर्मपदं
जनान् जनान्
जनान् हा जनान्
जनान् जनान् पृच्छति
अपि तावदेव वा अथवा अन्यत्
महोदय
हा अतः द्विकर्मक
द्विकर्मकं खलु
हा जनान् प्रश्नान्
पृच्छति
स्म अस्तु अग्रे
अतः तत्र तत्र गत्वा इति ग्रामं ग्रामं गत्वा अपि सम्यक् अस्ति
ग्राम इति अर्थः खलु तत्र केवलम् एकस्मिन् जा स्थाने सः तिष्ट्वा सः स्थित्वा तत्र एतत् न कृतवान् सः किं प्रपञ्चे ये जनाः प्रपञ्चे ये जनाः सन्ति तेषाम् उपरि तत्र विजयं प्राप्तुम् इष्टवान् अतः किं जनाः तस्य पार्श्वे तु न आगच्छन्ति खलु अतः सः एव तत्र पार्श्वे गतवान् खलु अतः तत्र तत्र गत्वा अस्तु अग्रे
तस्य अयं नियमः आसीत् यत् ये तस्य तस्य प्रश्नानाम् उत्तरं दातुम् असमर्थाः भवन्ति ते तस्मै पण्डिताय दण्डरूपेण दशरूप्यकाणि यच्छेयुः यच्छेयुः विधिलिङ्ग् अस्ति महोदय
समीचीनं भगिनि अतः के यच्छेयुः
ये जना उत्तरं दातुम् असमर्थाः अस्ति ते जनाः
सन्ति
ते तस्मै तस्मै इत्युक्ते पण्डिताय दण्डरूपेण दशरूप्यकाणि दत्तानि
यच्छेयुः तत्र यच्छेयुः इति तत्र इति विधिलिङ्ग् लकारः अस्ति खलु
आं महोदय यच्छ यच्छे
यच्छेयुः बहुवचनम् इदानीं तत्र दशरूप्यकाणि तत्र ददति अथवा दादातुः उपयुज्य वदतु तत्र किं भवति
रूप्यकाणि दद्युः
दद्युः तस्मै पण्डिताय दशरूप्यकाणि दद्युः समीचीनं भगिनि अस्तु पुनः एतद् वाक्यमेव तत्र यस्मिन् तत्र विधिलिङ्गकारः अस्ति तत्र भेदः भगिनी अग्रे एतत् वाक्यं पठित्वा अग्रे गच्छति वा भगिनि
एवमेव
पुनः तत्र तस्य अयं नियमः आसीत् इति
कुत्र आसीत् महोदय
यद् वाक्यम् इदानीम् उषा भगिनी पठितवती तदेव वाक्यं पुनः एकवारं
पठित्वा तस्य अयं नियमः आसीत् कः नियमः यत् ये तस्य प्रश्नानाम् उत्तरं दातुम् असमर्थाः भवन्ति ते तस्मै पण्डिताय दण्डरूपेण दश रूप्यकाणि यच्छेयुः
अर्थः कः
अर्थः अस्ति तत्र पण्डितः कुत्र कुत्र गतवान् अस्ति तत्र जनान् प्रश्नान् पृच्छति तत्र नियम यः अस्ति यत् ये तस्य प्रश्नानां ये इत्युक्ते ते जनाः तस्य प्रश्नानाम् उत्तरं न दातुं शक्नोति ते
शक्नुवन्ति
ते तस्मै पण्डिताय पण्डिताय किं वदामि पण्डिताय दण्डरूपेण दशरूप्यकाणि दद्युः यच्छेयुः
दद्युः तत्र अतः नाम यदि
ते प्रश्नान् उत्तरं न दातुं
प्रश्नस्य उत्तरं ते न जानन्ति चेत् तत्र दण्डं तैः दातव्यमस्ति दण्डं दातव्यमस्ति तैः अथवा दण्डः इति वा पुल्लिङ्गपदं वा तत्र न जानामि किन्तु तत्र सः चिन्तितवान् किं तत्र सः तस्य एव सर्वदा जयं भवति इति खलु
पण्डितः पण्डितः आत्मानं महापण्डितम् इति मन्ये तदेव
अतः सर्वान् गत्वा अस्तु अहं प्रश्नं पृच्छामि उत्तरं वदति अथवा नो चेत् मह्यं
रूप्यकाणि
दण्डरूपेण रूप्यकाणि ददातु इति सः
चिन्तितवान् इति
न सः चिन्तितवान् तस्य नियमः आसीत्
न तस्य नियमः आसीत्
नियमः आसीत् नाम तत्र प्रश्नानां तत्र प्रश्नात् पूर्वं नियमस्य नियमः कः इति वक्तव्यः कः अतः प्रथमतया नियमः कः इति उक्त्वा तदनन्तरं प्रश्नं
पृष्टवान्
अस्तु समीचीनं अग्रे
एवमेव पण्डितः बहुभ्यः जनेभ्यः धनं सङ्गीकृतवान्
सङ्गृहीतवान्
एवमेव पण्डितः बहुभ्यः जनेभ्यः बहुषु जनेषु धनम् दण्डरूपेण गृहीतवान्
तत्र बहुभ्यः जनेभ्यः इति अस्ति विभक्ति का तत्र
बहुभ्यः जनेभ्यः तत्र चतुर्थी गृहीतवान् इति कारणेन गृहीतवान्
चतुर्थी
बहुभ्यः जनेभ्यः पण्डितः बहुभ्यः जनेभ्यः
चतुर्थी भवितुम् अर्हति अन्यत्
पञ्चमी विभक्ति अस्ति वा बहुभ्यः
पञ्चमी कुत्र भवति पञ्चमी विभक्तेः तत्र सरलवाक्यं वदतु
सरलवाक्यम्
अस्ति फलं वृक्षात् फलं
पतति
तत्र किम् अभवत्
फलं वृक्षस्य
आसीत् किन्तु इदानीं तत्र किं अभवत् वियोगः अभवत् खलु सपरेशन् अस्ति खलु
सपरेशन् अस्ति आम्
वियोगः अभवत् खलु
अत्र धनं
धनस्य वियोगः अभवत् खलु धनः अपि जनाः
महोदय
अतः तत्र पञ्चमी
भवति
बहुभ्यः जनेभ्यः धनं सङ्गृहीतवान् समीचीनं भगिनि नमस्काराः
अग्रे पठामि वा
अग्रे पठतु भगिनि
कदाचित् सः
नमस्ते महोदय क्षम्यता
नमस्ते भगिनि
कदाचित् सः कञ्चित् ग्रामं प्रविष्टवान् कदाचित् कञ्चित् एतानि शब्दानि निश्चय नास्ति तत्र कदाचित् सः कञ्चित्
प्रविष्टवान् इति
तत्र प्रविशदातुतायति विष्टवान् प्रविष्टवान् तव तु
तत्र स्त्रीलिङ्गे किम् अस्ति रूपं
सा कञ्चित् ग्रामं प्रविष्टवती
प्रविष्टवती समीचीनम् अस्तु
तस्मिन् ग्रामे कृषिबलाः एव अधिकाः आसन् तस्मिन् ग्रामे कृषिबलाः इत्युक्ते कृषि या करोति सः कृषिबला कृषिकाः कृषिबलाः एव अधिकाः आसन् तस्य तस्मिन् ग्रामे किं वदामि अधिकतया कृषिबलाः एव आसन् तत् ग्रामे
आसन् तस्मिन् ग्रामे ग्रामे यत् ग्रामं सः
प्रविष्टवान्
तत्र यं ग्रामं सः प्रविष्टवान्
तस्मिन् ग्रामे
कृषिबलाः एव अधिकाः आसन्
आसन् ते यत्र कर्षणं कुर्वन्तः आसन् तत्रैव सः पण्डितः गतवान्
नाम
इत्युक्ते यत्र कृषिबलाः कर्षणं कुर्वन्तः आसन् तत्र एव सः पण्डितः गतवान् इत्युक्ते
आङ्ग्लभाषा मास्तु
न चिन्तितवती किं वदामि संस्कृते
नाम ग्रामम् अस्ति अपि कृषिक्षेत्रमपि अस्ति
कृषिक्षेत्रं यत्र
कृषिक्षेत्रमेव गत्वा साक्षात्
सः पण्डितः कृषिक्षेत्रमेव गतवान्
तत्रैव गतवान् अस्तु तत्र कुर्वन्तः इति अस्ति कुर्वन्तः कः कुर्वन्तः
कृषिबलाः कुर्वन्तः
किमर्थं
कुर्वन्तः
किमर्थं क्षत्रन्तरूपम् अस्ति तत्र
कुर्वन्तः आसीन् यत्र किमर्थं क्षत्रन्तरूपम् इत्युक्ते कार्यं कृतवान् अस्ति न ते सर्वे
कृतवान् इति नास्ति कुर्वन्तः इति अस्ति
कुर्वन्तः
आसन् नाम तत्र कार्यम् इदानीमपि प्रचलनम् अस्ति प्रचलत् अस्ति कार्यम् इदानीमपि प्रचलत् अस्ति अतः तत्र
तत्रैव पण्डितः गतवान्
तत्र
कृषिक्षेत्रे
पूर्वं कार्यं कृतवन्तः इति नास्ति अग्रे कुर्वन्ति इति नास्ति तत्र कुर्वन्तः एव ते सन्ति अतः यत्र कर्षणं कुर्वन्तः आसन् तत्र कृषिबलाः तत्र एव एषः पण्डितः गतवान् अस्तु अग्रिमवाक्यमपि पठतु भगिनि अग्रे
तान् कृषिकान् आहूय स्वस्य परिचयम् उक्तवान् पण्डितः सर्वे कृषिकान् आहूय इत्युक्ते सर्वे कृषिकान् आहूय स्वस्य परिचयम् उक्तवान् स्वस्य परिचयं दत्तवान्
सर्वे कृषिकान् इति न भवति खलु सर्वे कृषिकाः इति अस्ति तस्य द्वितीयविभक्तिकं
कृषिकान्
कृषिकान् इति समीचीनं सर्वे इति स्थाने किं भवति
सर्वे कृषिकाः
सर्वे इति पदस्य द्वितीयविभक्ति किम् अस्ति
द्वितीयविभक्ति सर्वान् कृषिकान् आहूय स्वस्य परिचयं दत्तवान्
अस्तु समीचीनं तत्र कृषिकान् इति कीदृशाः सन्ति ते कर्षणं कुर्वन्तः कृषिकाः इति तस्य द्वितीयविभक्तिरूपं किम् अस्ति कर्षणं कुर्वन्तः कृषिकाः
तस्य द्वितीया विभक्ति वा न स्मरामि महोदय तत्र
अन्य कोऽपि सहायं करोति वा तत्र किमस्ति
कुर्वतः कृषिकान्
कुर्वतः तत्र भवान् भवन्तौ भवन्तः
भवन्तं भवन्तौ भवतः
भवतः
करेक्ट्
कुर्वतः
कुर्वतः
कर्षणं कुर्वतः कृषिकान् आहूय अस्तु समीचीनं भगिनि धन्यवादः
आहूतवान् स्वस्य परिचयम् उक्त दत्तवान् एव
प्रथमतया आहूतवान् तदनन्तरं परिचयं
दत्तवान्
दत्तवान् समीचीनं भगिनि अतः प्रथमतया आहूतवान् अतः आहूय समीचीनम् अस्तु स्वीकृत भगिनि भवत्याः पार्श्वे कथा अस्ति वा भगिनि
आं स्वीकृतवती महोदय धन्यवादः
अस्तु भगिनि अस्तु अस्तु अग्रे तत्र लक्ष्मी भगिनी अग्रे पठति वा तत्र
अस्तु महोदय अनन्तरम् उक्तवान् भवत्सु यः कोऽपि मया सह स्पर्धां कर्तुम् अर्हति अहं तम् उद्दिश्य एकं प्रश्नं पृच्छामि यदि सः उत्तरं वदति तर्हि तस्य जयः यदि सः उत्तरं वक्तुम् असमर्थः भवति तर्हि तेन मह्यं दण्डरूपेण दशरूप्यकाणि दातव्यानि वदन्तु कः स्पर्धार्थम् आगच्छति इति
तावत्पर्यन्तं करोतु
अनन्तरम् उक्तवान् भवत्सु यः कोऽपि मया सह स्पर्धां कर्तुम् अर्हति
नाम भवत्सु यः कोऽपि मया सह स्पर्धां कर्तुम् अर्हति
सर्वे जनाः सन्ति तेषु सः मया सह स्पर्धां कर्तुम् अर्हति इति सः पृष्टवान्
न न न पृच्छति भगिनि अत्र न प्रश्नं न करोति वक्तुं सः वदति यः कोऽपि भवतु सः स्पर्धां कर्तुम् अर्हति इति वदति नाम केवलम् एषः एव कर्तुं शक्नोति एषः न कर्तुं शक्नोति इति वार्ता नास्ति यः कोऽपि अस्ति भवत्सु सः कर्तुं स्पर्धां कर्तुं शक्नोति इति सः वदति नाम तत्र सीमा नास्ति तत्र अर्हता नास्ति तत्र विशेष अर्हता इति किं किमस्ति
कोऽपि स्पर्धां कर्तुं
यः कोऽपि अस्ति सः स्पर्धां कर्तुं शक्नोति अतः तत्र भवत्सु यः कोऽपि मया सह स्पर्धां कर्तुम् अर्हति इति सः तत्र तम् उद्दिश्य सः वदति अतः तत्र इदानीम् एतत् उक्त्वा सः अग्रे किं वदति अहं
तम् उद्दिश्य एकं प्रश्नं पृच्छामि
स्पर्धां कर्तुम् इच्छति तम् उद्दिश्य अहं
एकं प्रश्नं पृच्छामि
तत्र तम् उद्दिश्य इति अपि तत्र उद्दिश्य इति आवश्यकता नास्ति तत्र तम् एकं प्रश्नं पृच्छामि इति भवितुमर्हति यतोहि पृच्छति इति द्विकर्मकधातुः तत्र तम् उद्दिश्य अथवा तम् एकं प्रश्नं पृच्छामि द्वयमपि साधु खलु अग्रे
यदि सः उत्तरं वदति तर्हि तस्य जयः यदि सः मम प्रश्नस्य उत्तरं ददाति वदति तर्हि तस्य जयः भवति यदि सः उत्तरं वक्तुम् असमर्थः भवति तर्हि तेन मह्यं दण्डरूपेण दशरूप्यकाणि दातव्यानि यदि सः प्रश्नस्य उत्तरं वक्तुं न शक्नोति तर्हि सः मां दण्डरूपेण दशरूप्यकाणि ददेत्
दद्यात् खलु दद्यात् खलु दद्यात् अस्तु सः तत्र इदानीं तत्र यदि सः उत्तरं वदति तर्हि तस्य जयः तत्र यदि इति त्यजामः तत्र सः उत्तरं वदति तत्र विधिलिङ्ग् सम्भवनार्थे किं भवति सः उत्तरं
वदेत्
वदेत् वदेत् तर्हि तस्य जयः
जयः भवेत्
भवेत् हा समीचीनं भगिनि हा अस्तु अग्रे तत्र यदि सः उत्तरं वक्तुम् असमर्थः भवेत् तत्र सः उत्तरं वक्तुम् असमर्थः भवेत् तर्हि
तेन मह्यं दण्डरूपेण दशरूप्यकाणि
दत्वा सः मह्यं दण्डरूपेण दशरूप्यकाणि दद्यात् दद्यात् हा वदन्तु
वदन्तु स्पर्धार्थम् आगच्छति इति
हा स्पर्धार्थम् इति स्थाने स्पर्धां कर्तुम् अथवा स्पर्धा इति स्पर्धा इति अस्ति तत्र अर्थं तत्र कार्यार्थम् इति तत्र विभक्ति का भवति समानार्थकविभक्ति किन्तु स्पर्धा इति चतुर्थी विभक्ति समीचीनं किन्तु स्पर्धा इति स्त्रीलिङ्गपदम् स्पर्धा हा स्पर्धायै कः
कः आगच्छति
इति समीचीनं भगिनि अस्तु धन्यवादः अस्तु अग्रे शोभा भगिनी
आं महोदय तत्र अग्रे पण्डितस्तु निरक्षरः
अधोभागे परिच्छेदः अस्ति भगिनि कृषिकाः सर्वे अपि विस्मिताः भूत्वा
ओ क्षम्यतां कृषिकाः सर्वेपि विस्मिताः भूत्वा तूष्णीं स्थिताः आसन् तदा तेषु हा अस्तु एकं वाक्यं नीत्वा
कृषिकाः एतावत् प्रश्नाः सन्ति वा तत्र सर्वे अवगन्तः भवन्तः खलु तत्र कोऽपि प्रश्नः नास्ति इति मन्ये खलु
तत्र महोदय क्षम्यतां महोदय
वदतु भगिनि
यदा वादविवादं प्रश्नान् पृष्टवान् खलु अतः तेन पराजिताः भवन्ति इति वक्तुं शक्नुमः खलु जनाः
तेन पराजिताः भवेयुः
भवेयुः तस्मात् इत्यपि वक्तुं शक्यते वा तस्मात् पराजयं प्राप्तवन्तः इति तादृश
प्रायशः न तस्मात् प्रायशः कारणमेव भवति इति मन्ये भगिनि
तस्मात् कारणेन इति अस्तु अस्तु महोदय
इति चिन्तयामि ते तत्र तेन इति समीचीनं किन्तु पञ्चमी प्रायशः समीचीनं नास्ति इति चिन्तयामि
पराजयं प्राप्नुवन्ति इति अस्तु महोदय धन्यवादः
तेन इति समीचीनम् अस्तु अग्रे शोभा भगिनि
आं महोदय तत्र प्रथमवाक्ये कृषिकाः सर्वेपि विस्मिताः भूत्वा तूष्णीं स्थिताः आसन्
पण्डितस्य वचनं श्रुत्वा
सर्वेपि आश्चर्यचकिताः अभवन् ते तूष्णीम् एव तिष्ठवन्तः किमपि वक्तुं
तत्र किमपि न उक्तवन्तः मौनम् आचरितवन्तः ते सर्वे
मौनम् आचरितवन्तः आं महोदय
यतोहि तत्र एतादृशी स्थितिः कदापि न
अभवत् पूर्वम्
अग्रे
अपि च तदा तेषु कश्चन युवकः कृषिकः अग्रे आगत्य तं पण्डितम् उक्तवान् ममापि एकः प्रश्नः अस्ति इति तदा तेषु कृषिकेषु कश्चन युवकः कृषिकः यः युवकः अस्ति सः तु तूष्णीं न तिष्ठवान् सः अग्रे आगतवान् अपि च तं पण्डितम् उक्तवान् यत् तस्य एकः प्रश्नः अस्ति अपि च यदि पण्डितः तस्य प्रश्नस्य उत्तरं दास्यति चेत् तर्हि भवता मह्यं न दास्यति चेत् तर्हि पण्डितः युवकं कृषिकं विंशतिरूप्यकाणि दातव्यानि इति.
दातव्यानि समीचीनं, किन्तु तत्र पण्डितः किं?
ओ मह्यं, क्षम्यतां क्षम्यतां, तत्र
युवकाय
कृषिकाय,
युवकाय
कृषिकाय
तस्मै
विंशतिरूप्यकाणि
दातव्यानि इति, रूप्यकाणि दातव्यानि इति, समीचीनं. तत्र एषः युवकः अस्ति, अस्तु भवतः पार्श्वे प्रश्नः अस्ति वा, मम पार्श्वे अपि प्रश्नः अस्ति.
तादृशः कदापि
दण्डरूपेण तत्र पण्डितस्य दण्डरूपेण तत्र पण्डिताय कति रूप्यकाणि दातव्यानि
तत्र?
यदि पण्डितस्य प्रश्नस्य उत्तरं न जानीमश्चेत् तत्र दशरूप्यकाणि
उक्तवान् वा?
दशरूप्यकाणि,
अत्र युवकः, युवकः वदति यदि पण्डितः न उत्तरं दातुं न शक्नोति चेत् विंशतिरूप्यकाणि दण्डेन दातव्यानि इति.
दण्डरूपेण दातव्यानि इति, अस्तु समीचीनम्. अग्रे
अग्रे पण्डितः तु निरक्षरः एषः कृषिकः किं पृच्छेत् इति भावेन एव तस्य नियमम् अङ्गीकृतवान् पण्डितः. प्रथममेव पण्डितः पण्डितस्य कं तत्र अभिप्रायः अस्ति, सः बहु किमपि जानाति इति. तस्य उपरि एषः तु कृषिकः किमपि न जानाति एव इति चिन्तयित्वा सः सः झटिति उक्तवान्, अङ्गीकृतवान्.
निरक्षरः सम्भावनार्थे
किं महोदय?
पृच्छेत् इति विधिलिङ्गकारः,
विधिलिङ्गकारः आम् आम् सम्भावनार्थे इति चिन्तयित्वा नियमम् अङ्गीकृतवान्.
तत्र युवकस्य नियमं, युवकस्य नियमम् अङ्गीकृतवान्.
युवकः प्रश्नं पृष्टवान् तादृशः कश्चन पक्षी अस्ति यस्य डयनसमये त्रयः पादाः भवन्ति, भूमौ यदा उपविशति तदा पादद्वयमेव भवति, सः कः पक्षी इति. अपि च तत्र युवकः वदति,
युवकस्य प्रश्नः कः, युवकस्य प्रश्नः कः,
युवकस्य प्रश्नः कश्चन पक्षी अस्ति तस्य सः तस्य डयनसमये त्रयपादाः, पादत्रयम्, अपि च उपविष्टसमये इति भवति वा महोदय? यदा उपविशति तत्समये पादद्वयं भवति,
तस्मिन्
तादृशः पक्षिः पक्षी कः इति.
तत्र तत्र कः पक्षी, एषः पक्षी कः अस्ति यस्य पादत्रयमस्ति डयनसमये, अपि तत्र यदा उपविशति तत्र पादद्वयमेव भवति, सः कः पक्षी इति सः पृच्छति, तत्र पण्डितं पृच्छति. समीचीनं भगिनी, अस्तु धन्यवादः. तत्र पृच्छेत् इति
पृच्छेत् इति भवति, पृच्छेत् इति आसीत् विधिलिङ्गरूपं,
विधिलिङ्गकारः रूपम्. अस्तु अस्तु धन्यवादः भगिनी. अस्तु अग्रे नरेश महोदय.
आं महोदय, एतं प्रश्नं श्रुत्वा पण्डितः नितरां विस्मितः.
पूर्वं किम् अभवत् प्रश्न, तत्र पण्डितस्य प्रश्नं श्रुत्वा सर्वे विस्मिताः अभवन्, इदानीं युवकस्य प्रश्नं श्रुत्वा पण्डितः
विस्मितः अभवत्.
सः
उत्तरं दातुं दिनद्वयात्मकं
दिनद्वयात्मकं
समयं याचितवान् सः पण्डितः उत्तरं न ज्ञातवान् सः उक्तवान् दिनद्वयं आवश्यकं तदुपरान्तम् अहम् उत्तरं ददामि
दास्यामि उत्तरं तत्र दिनद्वयानन्तरम् अहम् उत्तरं दास्यामि अथवा दातुं शक्नोमि अतः तत्र दिनद्वयं मह्यं समयं तत्र दिनद्वयात्मकं समयं मह्यं ददातु इति
ददातु
सः याचितवान् तत्र याचितवान् अपि द्विकर्मकधातु इति मन्ये खलु
दिनद्वयात्मकं समयं
तत्र तु तत्र विशेषभावः अस्ति तत्र कीदृशं समयं दिनद्वयात्मकं समयं किन्तु तत्र प्रायशः तत्र सः उत्तरं
दातुम् उत्तरं दातुं
बालकं तत्र अथवा युवकं याचितवान् समयं युवकं याचितवान् कं याचितवान् युवकं याचितवान् किं याचितवान् समयं
याचितवान्
इति अस्तु समीचीनम् अग्रे
ततः स्ववासस्थानं गतवान्
स्वस्य ग्रामं सः गतवान् अथवा गृहं गतवान् सः गृहं गतवान्
दिनद्वयं यावत् पक्षिविषयकानां सर्वेषां ग्रन्थानाम् अध्ययनं दिनद्वयं सः अध्ययनं कृतवान् कुत्र कृतवान् ग्रन्थानाम् अध्ययनं
कस्य
अध्ययनं कृतवान् ग्रन्थानाम् अध्ययनं कृतवान् पक्षिविषयकानां
नाम पक्षिविषयः यस्य ग्रन्थस्य विषयः पक्षिः इति अस्ति तस्य ग्रन्थस्य
अध्ययनम्
अथवा तत्र तेषां ग्रन्थानाम् अध्ययनं तत्र विषयकाणाम् इति अस्ति णत्वं किमर्थम्
शकारः अस्ति मूर्धन्यशकारः
विषयकाणां सर्वेषां ग्रन्थानाम् अध्ययनं कृतवान् तत्र पक्षिविषयकाणां केवलम् एकदिनं न किन्तु दिनद्वयमपि यावत् दिनद्वयमपि सः पूर्णदिनं तत्र अध्ययनं कृतवान् दिनद्वयम् अध्ययनं कृतवान् ततः किम् अभवत्
तथापि सः कः पक्षि इति सः न ज्ञातवान्
अतः
ग्रन्थानां अध्ययनं कृतवान् परन्तु सः न ज्ञातवान् तादृशः कः
पक्षि इति अतः तत्र बालकस्य प्रश्नस्य उत्तरं न प्राप्तवान् अतः सः न प्राप्तवान् समीचीनम् अस्तु अग्रे तत्र अशुभदा भगिनी अग्रे वदति वा शुभदा भगिनी अस्ति वा
अहं वा महोदय
आं भगिनि
आं क्षम्यताम् अस्तु दिनद्वयम् अतीतं तस्मिन् दिने निश्चिते समये सर्वे कृषिवलाः उपस्थिताः आसन् दिनद्वयात्मकं समयं यः सः याचितवान् पण्डितः ते द्वे दिने अतीते
अभवताम् अस्तु
दिनद्वयम् अतीतं तस्मिन् दिने निश्चिते समये यः दिनः निश्चितः आसीत् तस्मिन् दिने कस्मिंश्चित् निश्चिते समये सर्वे कृषिवलाः उपस्थिताः आसन् तत्र सर्वे कृषिवलाः ग्रामस्य कृषिवलाः तत्र
एकस्मिन् स्थाने सर्वे स्थित आसन् अथवा आगताः सर्वे उपस्थिताः एकस्मिन् स्थले
एकस्मिन् स्थले एकस्मिन् समये तत् सर्वे कृषिवलाः आगतवान् आगतवन्तः क्षम्यताम् पण्डितं मन्यः तत्र आगतवान् पण्डितं मन्यः इत्युक्ते किं महोदय
सः सः साक्षात् पण्डितः नास्ति किन्तु पण्डितं मन्यः इति मन्यं भगिनि तत्र साक्षात् पण्डितः नास्ति किन्तु यः अहं पण्डितः इति चिन्तयति सः पण्डितमन्यः पण्डितं मन्यः इति चिन्तयामि हा पण्डितमन्यः नाम अहं पण्डितः इति यः चिन्तयति सः पण्डितमन्यः
अस्तु
यः स्वं पण्डितं पण्डितम् इति मन्ये मन्यते सः पण्डितमन्यः
अस्तु महोदय पण्डितमन्यः
एषः पण्डितः इति तु आदौ उक्तम् एषः पण्डितः इति किन्तु सः साक्षात् पण्डितः नास्ति खलु तस्य पाण्डित्यम् अल्पमेव आसीत् इति अपि उक्तं खलु
महोदय
अतः पण्डितं मन्यः नाम साक्षात् पण्डितः नास्ति वस्तुतः पण्डितः नास्ति किन्तु पण्डितः अस्मि इति चिन्तयति
अस्तु पण्डितं मन्यः तत्र आगतवान् सः अतीव लज्जितः आसीत् तस्य उत्तरस्य अन्वेषणं सः न कृतवान् न कर्तुं शक्तवान्
तत्र अन्वेषणं कृतवान् किन्तु फलं न प्राप्तवान्
फलं न प्राप्तम् अतः सः अतीव लज्जितः आसीत् सः स्वस्य पराजयम् अङ्गीकृतवान् सः स्वीकृतवान् यत् सः उत्तरं दातुं न शक्नोति इति
सः
पराजय
तत्र स्वीकृतवान् अङ्गीकृतवान् तयोः मध्ये भेदः अस्ति तत्र स्वीकृतवान् इति केवलं टेक् इति एव अस्ति अङ्गीकृतवान् एव अक्सेप्ट् इति अस्ति
अस्तु महोदय
हा प्रादेशिकभाषासु तत्र अङ्गीकृतवान् स्वीकृतवान् इति तत्र समानार्थक इति चिन्तयामः किन्तु संस्कृते अहं चिन्तयामि तत्र अङ्गीकृतवान् इति भिन्नं स्वीकृतवान् इति भिन्नं
कः भेदः महोदय
स्वीकृतवान् नाम साक्षात् टेक् पुस्तकं स्वीकरोमि किन्तु पुस्तकम् अङ्गीकरोमि इति न वक्तुं शक्नुमः खलु अङ्गीकरोमि नाम अस्तु इति तद् अङ्गीकरोमि ऐ एक्सेप्ट् ऐ अग्री इति किन्तु स्वीकरोमि साक्षात् टेक् इति
अस्तु सः स्वस्य पराजयम् अङ्गीकृतवान् अतः विंशतिरूप्यकाणि युवकाय दत्तवान्
दण्डरूपेण तत्र युवकः किं पृष्टवान् आसीत् तत्र विंशतिरूप्यकाणि दातव्यानि इति सः
दत्तवान्
युवकः उक्तवान् पूर्वं खलु अग्रे
अस्तु अनन्तरं पण्डितः युवकं तमेव प्रश्नं पृष्टवान् बहु चतुरः युवकः युवकः झटिति पण्डिताय दशरूप्यकाणि यच्छन् उक्तवान् श्रीमन् अहमपि प्रश्नस्य उत्तरं दातुम् असमर्थः प्रश्नस्य उत्तरं तु युवकः अपि न ज्ञातवान् अतः पण्डितस्य नियमानुसारेण दशरूप्यकाणि तेन पण्डिताय दातव्यानि अतः दशरूप्यकाणि झटिति सः पण्डिताय दत्तवान् अपि च सः उक्तवान् श्रीमन् अहमपि प्रश्नस्य उत्तरं दातुम् असमर्थः यतः प्रपञ्चे तादृशः कोऽपि पक्षी नास्ति एव तादृशः कोऽपि पक्षी तत्र पक्षेः अस्तित्वमपि नास्ति अतः तत्तु एका कल्पना इति
वक्तुं शक्नुमः तत्र केवलं कल्पना एव आसीत् तत्र
युवकस्य चातुर्यं ज्ञात्वा पण्डितः लज्जितः सन् शिरः अवनतं कृतवान् पण्डितः स्वस्य बहु गर्वः आसीत् अहं पण्डितः इति परन्तु एतस्मिन् सभायां सोरि एतस्यां सभायां सः कृषिवलः युवकस्य प्रश्नस्य उत्तरं दातुं न शक्तवान् अतः सः लज्जितः भूत्वा सः स्वस्य शिरः अवनतं कृतवान् लज्जेन सोरि लज्जया ततः स्वदिग्विजयविचारं परित्यज्य स्वग्रामं प्रति गतवान् स्वदिग्विजय स्वस्य
दिग्विजय नाम तत्र सर्वत्र तत्र प्रपञ्चे ये जनाः सन्ति तेषाम् उपरि तत्र विजयं प्राप्तुं शक्नोमि इति चिन्तनमासीत् तथा तत्र दिग्विजयं खलु सर्वासु दिक्षु
सर्वासु दिक्षु
विजयं अहं विजयं प्राप्नोमि इति चिन्तनम् आसीत् तस्य तत् चिन्तनं सः त्यक्त्वा
स्वग्रामं प्रति गतवान्
अस्तु समीचीनं तत्र सर्वे अवगतवन्तः वा प्रश्नः अस्ति वा कस्य तत्र कथायाः विषये तत्र मध्ये मध्ये तत्र विधिलिङ्गकारः आसीत् तत्र किन्तु आधिक्येन न किन्तु कुत्रचित् आसीत् अस्तु तर्हि इदानीम् अग्रे तत्र गच्छामः तर्हि तत्र इदानीं तत्र विधिलिङ्गकारस्य तत्र गीतासोपने तत्र वयं किं तत्र श्लोकान् कृतवन्तः अपि तत्र 93-94 अपि कृतवन्तः इति मन्ये 94 कृतवन्तः वा
आं महोदय
95 केवलं 96 वा भगिनि
96 मध्ये सूक्तिः तत्र करणीयं महोदय सूक्तिः
तत् तदपि कृतवन्तः इति मन्ये भगिनि
न महोदय
न वा अस्तु केवलं सूक्तिः इति एव तत्र करणीयः अस्ति करणीयः अस्ति अस्तु अस्तु अतः तत्र कुर्मः तत्र अस्तु तत्र श्रीप्रिया भगिनी तत्र पठति वा तत्र
सुप्ति क्षणशः कणशश्चैव विद्यामर्थं च साधयेत् साधयेत् इति अस्ति विधिलिङ्गकारस्य प्रथमपुरुषे एकवचनं वयं यः कोऽपि यः कोऽपि अस्ति सः सः वा सा साधयेत्
किं साधयेत्
अर्थं विद्याम् इति अस्ति द्वितीय एकवचनम् अनन्तरम् अर्थं द्वयमपि साधयेत्
द्वयमपि साधयेत् विद्यां साधयेत् अर्थमपि साधयेत् इति समूहः अस्ति विद्याम् अर्थं च साधयेत् तत्र विद्यामर्थं च साधयेत् तस्मात् प्राक् किमस्ति
क्षण कथं साधयेत् क्षणशः मन्दं मन्दं एकमेकं लघु 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 इति वक्तुं
शक्यं लघुभागं 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 स्वीकृत्य तत्र विद्यामपि साधयेत् अर्थमपि
साधयेत् सम्पादनीयम् इति
तत्र विद्यामपि सम्पादनीयम् अर्थमपि साधनीयम् अतः तत्र एकस्मिन् समये तत्र यथा तत्र एषः पण्डितः आसीत् तत्र तत्र सर्वत्र सः विद्यां तत्र विजयं प्राप्तुम् इष्टवान् तादृशं नास्ति तत्र वयं किं सः चिन्तितवान् सर्वान् जानामि इति किन्तु अत्र किम् उक्तं तत्र वयं किमपि न जानीमः तत्र साधनीयमस्ति बहु किमपि किन्तु तत् क्षणशः साधनीयम् अपि कणशः साधनीयं विद्यां साधनीयम् अपि अर्थम्
क्षम्यतां महोदय, पुटसङ्ख्या किं?
पुटसङ्ख्या अस्ति 96 भगिनि, 96 अधोभागे अन्तिम अस्ति, अन्तिमभागे अस्ति सूक्तिः इति. अस्तु, सूक्तेः विषये कोऽपि प्रश्नः अस्ति वा
महोदय? कालक्रमेण सम्पादनीयम् इति वक्तुं शक्नुमः वा?
काल अक्रमेण, तत्र क्रमेण नाम हा हा तदपि कालक्रमेण वक्तुं शक्नुमः भगिनि. तत्र कालक्रमेण अपि तत्र एकस्मिन् समये सर्वमपि नास्ति, खण्ड भागं भागं लघु लघु भागं स्वीकृत्य एव तत्र प्रतिदिने तत्र बहु किमपि न कर्तुं शक्नुमः. यद् तदपि साधु एव तत्र अद्य किञ्चित् एव कर्तुं शक्नुवन्तः, तदपि साधु. अग्रिमे दिने अपि किमपि करणीयम् एतद् कुर्मश्चेत् तत्र सर्वं साधितुं शक्नुमः इति.
महोदय एवम् उक्तं समीचीनं वा? कणशश्च अर्थं साधयेत् तदेव क्षणक्षः विद्यां साधयेत्, कम्पेरिसन् तत्र अस्ति वा?
न जानामि भगिनि, समीचीनप्रश्न. अहं चिन्तितवान् तत्र द्वयोः कृते तत्र क्षणशः कणशः इति तत्र
कणशः इत्युक्ते एकमेकं कृत्वा अर्थं साधयेत् तदेव क्षणक्षः विद्यां प्राप्तुं
शक्नुमः. प्रायशः प्रायशः भगिनि, तत्र अहं चिन्तयामि तत्र कालस्य विषयः अपि अस्ति, अपि तत्र भागस्य खण्डस्य विषयः अपि अस्ति. एतत् प्रायशः विद्यायाः विषये अपि खण्डस्य आवश्यकता अस्ति, कालस्य अपि आवश्यकता अस्ति, अर्थस्य विषये अपि कालस्य आवश्यकता अस्ति, खण्डस्य आवश्यकता अस्ति खलु. अतः तत्र केवलं क्षणशः विद्यां तदनन्तरं कणशः अर्थम् इति प्रायशः नास्ति इति मन्ये भगिनि. तत्र द्वय विषयद्वयमस्ति, कणः क्षणः अपि विद्यायाः कृते अपि भवति, अर्थस्य कृते अपि भवति इति मम मतम्. अस्तु तर्हि
धन्यवादः.
धन्यवादः भगिनि. अस्तु, अतः एतावत् वयं किं पठितवन्तः नाम तत्र विधिलिङ्गकारस्य अर्थद्वयमस्ति. प्रथम अर्थः अस्ति सम्भावना इति, भवितुम् अर्हति भवेत्, सम्यक्तया न ज्ञानं नास्ति तद् भवेत्. तत्र श्रीधरः कार्यालये भवेत् इति, अथवा श्वः वृष्टिः भवेत् इति, तत्र सम्यक् ज्ञानं नास्ति. इदानीम् अग्रे समानरूपं, किन्तु इदानीम् अग्रे विधिलिङ्गकारस्य द्वितीय अर्थः अस्ति, तत्र विद्यर्थः इति. विद्यर्थः इति भिन्न अर्थः. इदानीं सः अर्कः इति पश्यामः. अस्तु तर्हि तत्र श्रीप्रिया भगिनी, भवती एव तत्र आरम्भं करोति वा अग्रिमपाठम्? वरदा शारदा, वरदा शारदा इति अस्ति. अस्तु, तत्र भवती एव तत्र वाक्यत्रयम् अथवा चतुष्त्रयं पठतु भगिनि.
आम् अस्तु महोदय. परस्परं भावयन्तः विधिलिङ्गकारः विध्यर्थे. एतत् दूरवाणीसम्भाषणम् उच्चैः पठत. वरदा: हरि ओम्. शारदा खलु? शारदा: आम्, वदतु कः विशेषः? वरदा: सर्वं कुशलं. भवती किमर्थं ह्यस्तनं मेलनं न आगतवती? शारदा: क्षम्यताम्, मया अन्यत्र गन्तव्यम् आपतितम्, अतः एव न आगतवती. मेलने के निर्णयाः कृताः?
अस्तु, तत्र एतावत्पर्यन्तं तत्र विधिलिङ्गकारः नास्ति, किन्तु एकवारं तत्र सर्वे अवगच्छन्ति वा तत्र किम् अस्ति इति? प्रायशः तत्र सर्वं सरलमेव अस्ति इति मन्ये खलु?
मेलनम् इत्युक्ते किं महोदय, मीटिङ्ग् वा?
हा मेलनं, हा सत्यं भगिनि, हा ह्यस्तनं मेलनं, तत्र मेलनं न आगतवती. किमर्थं न आगतवती? मेलनम् इति मीटिङ्ग्. हा मया अन्यत्र गन्तव्यम् आपतितं, तत्र अहं चिन्तितवती तत्र आगच्छामि इति, किन्तु किम् आपतितम्? आपतितं नाम तस्य वार्ता, तस्य विषये तत्र ज्ञानं न आसीत्, तत् अन्यत्र गन्तव्यम् इति आपतितम्. अत्र अतः एव अहं न तत्र न मेलनं न आगतवती. मेलने के के अस्तु, हा तत्र किमपि विधिलिङ्ग नास्ति. अस्तु, अन्य कोऽपि पठतु, तदनन्तरं श्रीप्रिया भगिनी भवती अग्रे पुनः पठतु.
महोदय, आपतितम् अकस्मात् आगच्छति इति वक्तुं शक्यते वा?
आपतितं तत्र विशेषणम् अस्ति, तत्र गन्तव्यम् आपतितम्. आपतितं नाम तत्र आपतति इति, तत्र तत्र अस्माकं किं वशे नास्ति. या स्थितिः तत्र अथवा या परिस्थितिः अस्माकं चिन्तने नासीत् अथवा अस्माकं वशे नासीत्, किन्तु तत् आगतं विना सूचना आगतम्. अतः तत्र विना सूचना सा स्थितिः आगता चेत् वयं वदामः आपतितः अथवा आपतिता इति. साधारणतया तत्र दुःखवार्ता एव तत्र आपतिता इति वदामः. खेदजनका वार्ता इति इव तत्र, ओ एषा परिस्थितिः आगता, अहम् एतत् कर्तुम् इष्टवान् अथवा एतं कर्तुं गन्तुं सिद्धः आसम्, किन्तु एषा वार्ता आगता, तदा एव अहं ज्ञातवान् तत्र एषा स्थितिः आपतिता इति. तत्र पतनक्रिया अस्ति खलु भगिनि?
आमां, प्रत्ययः.
हा, तत्र आपतिता इति तत्र तत्र भूतकाल भूतकालार्थे आगता इति, तत्र स्वयमेव तत्र पतति पातयति इति तत्र निच् अस्ति. एतत्तु तत्र भूतकालार्थे आपतिता. हा आपतिता, तत्र त प्रत्ययः पतितम्. आपतितं नाम स्वयमेव तत्र आगतम् इति.
अत्र अकस्मात् इति न अकस्मात् इत्यपि तादृशमेव प्रयोगः भवति वा?
सत्यं सत्यं भगिनि, हा तत्र अस्मात् हा अकस्मात् इति, यतोहि तत्र तस्य तत्र ज्ञानं पूर्वं नासीत् इति.
अस्तु महोदय.
यत्र ज्ञानं पूर्वं पूर्वज्ञानं नासीत् नास्ति तत्र आपतितम् आपतिता इति वदामः.
अस्तु महोदय, धन्यवादः.
अस्तु अस्तु, तर्हि इदानीं तत्र अग्रे
महोदय महोदय विद्यार्थे इत्युक्ते किम् अस्ति महोदय?
एतावत् तत्र उदाहरणमेव नासीत् भगिनि. यदि यदि भवती वक्तुं पठितुं शक्नोति भवती एव अग्रे पठतु.
न महोदय, अद्य पठितुं न शक्नोमि,
क्षन्तव्यम्. किन्तु अग्रे एव तत्र अग्रे उदाहरणानि आगच्छन्ति. अस्तु अग्रे तत्र, हा अस्तु तर्हि तत्र अस्तु. शोभा भगिनी अग्रे पठति वा?
आं महोदय, पठामि. प्रायः वरदा वरदा वदति, प्रायः सर्वाणि कार्याणि चिन्तितानि, उत्तर उत्तरदायित्वानि अपि निश्चितानि. शारदा वदामि वा तत्र महोदय?
तत्र एतत् वाक्यद्वयं स्वीकृत्य वदतु भगिनि, तदनन्तरं तृतीयवाक्यं तृतीयभागं करोतु.
आं शारदा भगिनी, कस्यै किम् उत्तरदायित्वं दत्तम् इति. तत्र वरदा वदति, प्रायः तत्र प्रायशः अपि भवति इत्युक्ते निश्चितं नास्ति, भवेत् वा न भवेत् इति तत्र अर्थः तु तादृशम् अस्ति किल महोदय प्रायः
तत्र प्रायः सर्वाणि कार्याणि चिन्तितानि
चिन्तितानि सर्वाणि कार्याणि चिन्तितानि इत्युक्ते यत् करणीयम् अस्ति तत् सर्वं नीत्वा कानिचन निर्णयानि कृतानि अपि च तेषु तेषां कार्याणाम् उत्तरदायित्वमपि तस्य अपि निर्णयं कृतम्
उत्तरदायित्वं कस्याः का किम् उत्तरदायित्वम् इति तदपि
मेलने निश्चितम्
निश्चितम् अस्ति हा समीचीनम् अस्तु अग्रे
अपि च अग्रे भगिनी इति सम्बोधनरूपं कस्यै किम् उत्तरदायित्वं दत्तम् अत्र धातुतः आगतः दत्तम् अस्ति इति कृत्वा कस्यै इति चतुर्थी विभक्तिः भवति कस्यै किम् उत्तरदायित्वं तत्र उत्तरदायित्वम् इत्युक्ते कस्य कस्य रेस्पान्सिबिलिटि किम् अस्ति
उत्तरदायित्वं नाम किं कार्यं कार्यमस्ति तस्य कार्यस्य उत्तरदायित्वं कस्यै दत्तं दत्तम् इति तु तप्रत्ययः पठितं
तप्रत्ययः दत्तम् इति तत्र नपुंसकलिङ्गे
यतोहि उत्तरदायित्वं नपुंसकलिङ्गे विशेषणमस्ति
तत्र पर्यायवाचकपदं किं महोदय उत्तरदायित्वम् इत्यस्य सामान्यपदम्
उत्तरदायित्वम् इति एव जानामि तत्र अन्यत् किमस्ति कोऽपि जानन्ति
निर्देशम् इति वक्तुं शक्नोतु वा निर्देशं करणीयं
हा किन्तु
कार्यस्य वहनम् इति भवति महोदय
उत्तरदायित्वम्
निर्वहणं
भवितुम् अर्हति इति मन्ये
मन्ये भगिनि सत्यं
दायित्वमपि अस्ति न महोदय दायित्वम्
उत्तरदायित्वम्
उत्तरदायित्वं नो चेत् दायित्वं भवितुम् अर्हति
दायित्वम् इति भवति वा अस्तु
दायित्वमेव अस्ति
तन्तु उत्तरदायित्वम् इति तत्र किमर्थम् एतत् पदम् अस्ति इति जानन्ति खलु रेस्पान्सिबिलिटि इति अर्थे
नाम
दातव्यं किं दातव्यम् उत्तरं दातव्यं दातव्यम् अतः
किमपि भवेत् उत्तर दातव्यम् इति एव भवति वा
सत्यं
अस्तु महोदय
अक्षरशः अर्थः अस्ति तत्र महोदय अक्षरशः
सत्यं भगिनि
लिटरल्
योगार्थः इति वदामः खलु तत्र पदस्य अर्थद्वयमस्ति योगार्थः रूढार्थः नाम तत्र पदस्य निर्माणे यः अर्थः सम्भवति सः योगार्थः तत्र व्याकरणदृष्ट्या तत्र कः कः प्रत्ययः अन्तर्भूतः अस्ति इति कृत्वा पदस्य निर्माणं दृष्ट्वा यः अर्थः लभ्यते सः योगार्थः अपि तत्र जनाः तत्र परम्परया तत्र पदस्य अन्यम् अर्थं तत्र स्वीकृत्य तस्य प्रयोजनं कुर्वन्ति चेत् तत्र सः अर्थः भवति रूढार्थः
रूढार्थः लोकरूढि
योगार्थः एकः रूढार्थः अत्र उत्तरदायित्वं तस्य योगार्थः समीचीनः
अग्रे वरदा सभाकार्यं नलिनी पश्येत्
हा इदानीं पश्येत् इदानीं भगिनी तत्र विधिलिङ्गकारः पश्यति इति विधिलिङ्गकारः कः
पश्यति इति तत्र पश्येत् इति विधिलिङ्गकार प्रथमपुरुषे एकवचने भवति
एकवचने किन्तु इदानीं रूपं समानमस्ति किन्तु अर्थभेदः इदानीं सः तत्र नलिनी पश्यति नभा इति वार्ता नास्ति पूर्वं वयम् अस्माकं चिन्तनं किम् आसीत् नलिनी
भवेत् वा न भवेत् इति
हा इति आसीत् किन्तु इदानीं किम् अस्ति नलिन्याः उत्तरदायित्वम् अस्ति, सा एव पश्येत्,
पश्येत् भवतु इति
कार्यं, सा एव पश्येत्, अतः नलिन्याः उत्तरदायित्वं सभाकार्ये कार्यस्य उत्तरदायित्वं नलिन्याः अस्ति.
तत्र आज्ञार्थे भवति वा महोदय? तत्र
विद्यार्थे, सा एव
विद्यार्थे,
अया एव करणीयम् इति
विधि अर्थे. अस्तु, विधि अर्थे,
हा विधि अर्थे
कार्यम्
इदानीं तत्र. हा एषा तत्र लोट् लकारः इति तत्र आज्ञा इति अपि वक्तुं शक्नुमः, नाम सा एव करोतु इति. अतः सा एव पश्येत्, नलिनी एव सभाकार्यं, नलिनी एव पश्येत्. अग्रे
तस्याः साहाय्यार्थं तिस्रः भवेयुः.
कस्याः साहाय्यार्थं?
तत्र भवेत् इति भवति एकवचने प्रथमपुरुषे, बहुवचने भवेयुः इति भवति. साहाय्यार्थं तिस्रः कोऽपि तिस्रः भवेयुः.
तत्र कस्याः साहाय्यार्थं?
तत्र नलिन्याः साहाय्यार्थं.
नलिन्याः
तिस्रः भवेयुः,
तिस्रः महिलाः
सदस्याः,
तिस्रः महिलाः भवेयुः. समीचीनं भगिनि. अस्तु, अग्रे तत्र नरेश महोदय अग्रे.
अतिथीनां व्यवस्थां रेवती निर्वहयेत्.
निर्वहेत् इदानीं किन्तु अर्थः भिन्नः. पूर्वं सः निर्वहेत् न वा इति न जानीमः,
न जानामि,
चिन्तनम् आसीत्. इदानीं चिन्तनं किमस्ति? सः एव, सा एव करोति,
उत्तरदायित्वम् अस्ति. निर्वहेत् अतिथीनां व्यवस्थां रेवती निर्वहेत्.
अतिथीनां व्यवस्थां रेवती निर्वहेत्. तत्र निर्वहेत् इति पदस्य कर्मपदं किम् अस्ति?
व्यवस्था
इति, व्यवस्था इति पदं, तस्य द्वितीयविभक्त्यन्तं
व्यवस्थां,
आकारान्तस्त्रीलिङ्गपदं. समीचीनं. अग्रे
गङ्गा तस्याः साहाय्यं कुर्यात्. अत्रापि कुर्यात् तत्
सा एव गङ्गा एव तस्याः, कस्याः साहाय्यार्थं साहाय्यं कुर्यात्?
रेवत्याः.
गङ्गा रेवत्याः साहाय्यं कुर्यात् नाम गङ्गा एव गङ्गा एव करोति, साहाय्यं करोति. का करोति? गङ्गा एव करोति रेवत्याः साहाय्यम्. अन्या न करोति, केवलं
गङ्गा करोति.
गङ्गया एव करणीयं साहाय्यं, गङ्गया एव करणीयम् अस्ति. अग्रे
लतिका शुभा च पानजलं वितरेताम्. द्वे अस्ति, द्विवचनं
द्वे स्तः,
द्वे
महिले स्तः. लतिका शुभा च ते
पानजलं वितरेताम्.
तत्र पानजलस्य वितरणं
कुर्याताम्.
समीचीनं महोदय, कुर्याताम्. लतिका शुभा च पानजलस्य वितरणं कुर्याताम्. अग्रे
कार्यक्रमसञ्चालनं लक्ष्मीः कुर्यात्.
कार्यक्रमस्य सञ्चालनं लक्ष्मी कुर्यात्, सा एव
कुर्यात्,
तया एव करणीयम्, अन्यया न करणीयम् इति. समीचीनं महोदय, धन्यवादः. अस्तु, अग्रे लक्ष्मी भगिनी.
अस्तु महोदय. भगिनी, वैयक्तिकगीतं का गायेत्?
गीदातुः गायति इति स्थाने गायेत् नाम नाम विद्यार्थी नाम निश्चयः कृतः खलु सर्वं निश्चितमस्ति
सा एव
कः किं करोति कः किं करोति इति सर्वं निश्चितमस्ति अतः वैयक्तिकगीतं का गायेत् तत्र निश्चयः कः इति अतः तत्र वरदा किं वदति
गायत्री वैयक्तिकगीतं गायेत्
नाम गायत्री सा एव वैयक्तिकगीतं गायेत् समीचीनम् अग्रे
विजया स्वागतं विदिदा धन्यवादं च व्याहरेदां अनन्तरं
विजया स्वागतं
व्याहरेत् विदिदा धन्यवादं व्याहरेत्
तत्र विजया किं करोति किं कुर्यात् विजया स्वागतं कुर्यात् विदिता किं कुर्यात्
धन्यवादं
अग्रे
वरदे अहं किं कुर्यां कुर्याम् उत्तमपुरुष एकवचनं
विदिलिङ्ग् विदिलिङ्ग् इदानीं विद्यर्थे
विद्यार्थे
अतः तत्र मया मम उत्तरदायित्वं किम् अस्ति इति तत्र मया किं करणीयं
किं
कुर्याम् अहं किं कुर्याम्
भवती प्रचारकार्यं कुर्यात्
अतः तत्र शारदा किं करोति शारदा
प्रचारकार्यं कुर्यात्
शारदा प्रचारकार्यं कुर्यात् समीचीनम् अग्रे
सर्वे पत्रं लिखेत्
तत्र सर्वेभ्यः पत्रं लिखेत् इति तत्र कर्तृपदं किम् अस्ति
सर्वे पत्रं लिखेयुः
न न
तत्र सर्वेभ्यः जनेभ्यः
न न अस्तु
भवति
सर्वेभ्यः पत्रं लिखेत् तत्र लिखेत् अस्ति चेत् पत्रं लिखामि तत्र यदि भवती पत्रं लिखति तत्र प्रश्नः भवति कस्मै पत्रं लिखति इति खलु सर्वेभ्यः जनेभ्यः पत्रं लिखेत् का लिखेत् शारदा लिखेत्
इदानीं
अग्रे सर्वान्
सर्वान् अपि आह्वयेत्
का आह्वयेत्
शारदा आह्वयेत्
शारदा सर्वान् अपि आह्वयेत् समीचीनं भगिनि अस्तु अग्रे तत्र वेदा भगिनि अग्रे
आं महोदय पत्रिकाभ्यः वार्ताम् अपि दद्यात् पत्रिकाभ्यः वार्तामपि दद्यात् तत्र भवती पत्रिकाभ्यः वार्ताम् अपि दद्यात् वार्ताम्
इत्युक्ते
वार्तामित्युक्ते
कार्यक्रमस्य
विवरणम् इति वक्तुं शक्नुमः
विवरणं वार्तां तत्र पत्रिकाभ्यः इति विभक्ति का तत्र
पत्रिकाभ्यः चतुर्थी विभक्ति दद्यात्
दानक्रिया चतुर्थी समीचीनम् अग्रे
यतः कार्यक्रमः भविष्यति इति सर्वेपि जानीयुः किल यतः कार्यक्रमः भविष्यति इति सर्वेपि जानीयुः किल जानीयुः प्रथमपुरुष बहुवचनरूपमस्ति जानीयु किल तत्र
अर्थः कः यतः अस्ति चेत् किम् अस्ति
यतः लैक् सर्वे कार्य
यतः नाम
यतः इत्युक्ते यतः ततः लैक् तस्य रूपमस्ति
यतः ततः नास्ति तत्र यतः इति अस्ति अतः अस्ति यतः अस्ति अतः इति भिन्नम् अस्ति यतः इति भिन्नम् अस्ति तत्र अस्तु तत्र
किं वदामि तत्र
श्रीप्रिया भगिनी यतः इति युक्ते किं
बिकास्
संस्कृत
किमर्थम् इत्युक्ते
संस्कृते
किमर्थम् इत्युक्ते कार्यक्रमस्य अवगमनम् आवश्यकम्
तत्र कारणमस्ति पत्रिकाभ्यः वार्ताम् अपि दद्यां किमर्थं दद्यां किमर्थं तत्र कारणं किमर्थं शारदा दद्यात् यतोहि कार्यक्रमः भविष्यति इति सर्वेपि जानीयुः किल
ओके ओके
अर्थः इदानीम्
अवगतवती इत्युक्ते कार्यक्रमं किं भविष्यति इति सर्वे जनाः
भविष्यति इति सर्वे जानीयुः खलु
तत्कारणे पत्रिकाभ्यः वार्तामपि दद्यात्
इति अस्ति समीचीनम् अस्तु तर्हि तत्र समयपि जातः अस्तु तर्हि तत्र ततः एव तत्र विरमाम तत्र अस्तु उषा भगिनी तत्र अन्ते भवती तत्र शान्तिमन्त्रं वदति वा भगिनि
आम् महोदय ॐ सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् ॐ शान्ति शान्ति शान्तिः श्रीगुरुभ्यो नमः हरिः ओम् धन्यवादः महोदय